राग द्वेष द्वयमुदयते तावदे तन्नयावद् ज्ञानं ज्ञानं भवति न पुनर्बोध्यतां याति बोध्यम् ज्ञानं ज्ञानं भवतु तदिदं न्यक्कृताज्ञानभावम्।